एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। रोल्पा जनपदस्य थवाङ ग्रामपालिकायाः पञ्चमौडा क्षेत्रस्य उवावर्तिनी कोटलवाडा स्थाने भूस्खलने निपत्य दशजना मृता सन्ति इति पुष्टिभूतम् वर्तते। भूस्खलने निपत्य त्रयोजना विलुप्ता वर्तन्ते। भूस्खलने निपत्य आहतयोर्द्वयोर्जनयोः उपचारः जायमानोऽस्ति। परह्यो बुधबार सरस्य रात्रौ आसन्न नववादने अविरल वृष्ट्या सहैव दुरापन्नेन भूस्खलनेन कोटलवाडा वसतेः नवसंख्यातानि गृहगोष्ठानि पूरितानि सन्तीति च प्रहरिणा ज्ञापितम् वर्तते। भूस्खलने निपत्य थवाङ ग्रामपालिकायाः पञ्चमौडाक्षेत्रस्य अष्टादश वर्षीय शान्तिपुन मगरः, षष्ठी वर्षीय कमलबहादुरपुन मगरः, पञ्चसप्तति वर्षीय दलबहादुरपुन मगरः, अशीति वर्षीय मनखनापुन मगरः, पञ्चाशीति वर्षीय हस्तकला रोका, अष्टात्रिंशत वर्षीय जुन कुमारी पुन मगरः, नववर्षीय असीम पुन मगरः, पञ्चवर्षीय अशोक पुन मगरः, अशीति वर्षीय बलबहादुर पुन, षष्ठी वर्षीय मणिपुन मगरः, चतुस्त्रिंशत वर्षीय महेन्द्र घरती च वर्तन्ते इति प्रहरिणा ज्ञापितमस्ति। अत्रान्तरे राष्ट्रिय स्वतन्त्र दलेन रोल्पा जनपदस्य कोटलवाडा स्थाने बुधवासरस्य रात्रौ दुरापन्नस्य भूस्खलनस्य घटनां प्रति दुःखम् अभिव्यज्य उद्धाराय सहयोगाय च सर्वकारेण सहयाचना विहिता वर्तते। रासुपा दलस्य महामन्त्रिणा विपिन आचार्येण प्रकाशितायां विज्ञप्तौ मृतकान् जनान् प्रति श्रद्धाञ्जलिं समर्प्य परिवारजनेषु समवेदना व्यक्तास्ति। सहैव आहतानां जनानां स्वास्थ्यलाभस्य कामनां विधाय विलुप्तानां जनानाम् अन्वेषणाय सर्वकारस्य ध्यानाकर्षणं विहितम् अस्ति। सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्रिणा कमलबहादुर शाहिन ह्य त्यागपत्रम् दत्तमस्ति। प्रदेशसभाया स्थनोपवेशम् सम्बोधयता मुख्यमन्त्रिणा शाहिन पदात् त्यागपत्रम् प्रदातुम् घोषणा विहिता अस्ति। मुख्यमन्त्रिणा शाहिन प्रदेश प्रमुखस्य नजीर मिया इत्यस्य समक्षम् त्यागपत्रम् प्रदत्तमस्ति। तात्कालिक सत्ता गठबन्धनेन नेकपा एमाले दलेन मुख्यमन्त्रिणे शाह विधाय प्रदत्तस्य समर्थनस्य प्रत्यावर्तनानन्तरम् शाह अल्पमते आसीत्। सांविधानिक व्यवस्थायाः अनुसारेण ह्यस्तन दिवसं यावत् विश्वासस्य मतं ग्रहणीयम् आसीत्, परं विश्वासमतस्य पक्षे बहुमतस्य भावास्थां दृष्ट्वा पूर्वेद्यु मुख्यमन्त्रिणा शाह विधेन त्यागपत्रम् दत्तमस्ति इति मुख्यमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। अत्रान्तरे सुदूरपश्चिम प्रदेशस्य प्रमुखेण नजीर मिया इत्यनेन संविधानस्य अष्टषष्ट्युत्तरैकशततम धारायाः द्वितीयोपधारायाः अनुसारेण मुख्यमन्त्रिपदस्य कृते स्वत्वम् प्रस्तुतुम् आहूतमस्ति। प्रदेशसभायां प्रतिनिधित्वं कुर्वतोर्द्वयोः तदधिकानां वा दलानां समर्थनेन बहुमतं लब्धुं सफलः सांसदः अद्य पूर्वाह्नस्य एकादशवादनं यावत् प्रदेशप्रमुखस्य समक्षं स्वत्वं प्रस्तुतुं शक्नोति इति उक्त्वा मुख्यमन्त्रिपदस्य कृते आह्वानं विहितमस्ति। अत्रान्तरे कोशी प्रदेशसभायाः नवमस्य अधिवेशनस्य त्रयोविंशतितमः उपवेशो भाद्रमासस्य तृतीय दिवसे एकवादनाय आहूतोऽस्ति। पूर्व प्रधानमन्त्रिणा नेपाली कांग्रेस दलस्य पूर्व सभापतिना शेरबहादुर देउवा विधेन देशे राष्ट्रे एकतां सुदृढं विधातुं विद्वेषं शमयितुं च आह्वानं विहितमस्ति। जेएनजी युवान्दोलनस्य क्रमे सांघातिकेन आक्रमणेन आहतेन देउवा विधेन पञ्चमासान् यावत् विदेशे उपचारं विधाय ह्य स्वदेशं प्रत्यागत्य राष्ट्रियैकतायै स्वदेशं प्रत्यागतोऽस्मि न तु शक्तिप्राप्तये इति स्पष्टीकृतं वर्तते। पूर्व सभापतिः देउवा देशस्य विद्यमानां जटिल परिस्थितिं समाधातुं सम्पूर्ण राजनीतिक दलानां प्रजातान्त्रिक शक्तीनां च एकीभवनम् आवश्यकमस्तीत्यत्र बलं प्रादात्। सभापतेः देउवाविधस्य स्वागतार्थं कांग्रेस दलस्य कतिपय नेतारः कार्यकर्तारश्च पूर्वेद्युः विमानस्थलं प्राप्तः आसन्। अत्रान्तरे नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेशेन दलस्य निवर्तमान सभापतेः पूर्व प्रधानमन्त्रिणः शेरबहादुर देउवाविधस्य स्वदेशं प्रत्यागमने स्वागतं विधाय विभिन्नेषु सामयिक विषयेषु निर्णय विहितोऽस्ति। सा नेपावर्तिनी दल केन्द्रीय कार्यालय सञ्चल्यमानेन उपवेशेन स्वास्थ्य उपचारं विधाय स्वदेशं प्रत्यागतस्य देउवाभिधस्य स्वास्थ्य लाभस्य कामनां विधाय विशेष महाधिवेशनस्य माध्यमेन आगतं वैधानिकं परिवर्तनं संस्थागतं कर्तुं देउवाभिधस्य अभिभावकीया भूमिका भविष्यति इति विश्वासो व्यक्तोऽस्ति। एवमेव उपवेशेन रूल्पा जनपदस्य कोटलवाड़ा ग्रामे भूस्खलने निपत्य मृतकेभ्य जनेभ्य श्रद्धाञ्जलिं समर्प्य परिवारजनेषु समवेदना व्यक्तास्ति। राष्ट्रिय सभया अन्तर्वायु सेवाया दायित्व सम्बद्धम् एतद् विक्रमवर्षीयं विधेयकम् आधृत्य विचारेतामिति निगद्य प्रस्तुत प्रस्ताव सर्वसम्मत्या स्वीकृतोऽस्ति। सभाया स्थनोपवेशे संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा खड़क राज पौडेलेन प्रस्तुतं विधेयकमिदं सभया स्वीकृतमस्ति। विमर्शने सांसदै उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री पौडेलः यूरोपीय संघस्य वायु सेवायाः कलंक सूचितः नेपालम् अपसारयितुं विभिन्नेषु चरणेषु सुधारस्य कार्यं जायमानम् अस्तीत्यतः षड्मासाभ्यन्तरे अनुकूल परिणामो लब्धुं शक्यते इति आशां व्यक्तवान्। मन्त्री पौडेलः विधेयकस्यास्य क्रियान्वयनानन्तरम् आन्तर्वायु सेवायां दृष्टः विकृतयः समाप्तिं यास्यन्ति इति विश्वासं व्यक्तवान्। राष्ट्रसभायाः स्थनोपवेशे प्रधानमन्त्रिणः पक्षतः उत्तरं प्रयच्छन्ति विधि न्याय संसदीय विषय मन्त्री सोविता गौतमः सर्वकारेण दलित समुदायानां सांविधानिकाधिकाराणां क्रियान्वयनाय तत्समूहानां विकासाय च विशेष कार्ययोजनया सहितायाः विधिगताया नीतिगतायाश्च प्रक्रियायाः प्रारम्भो विहितोऽस्ति इति सूचितवती वर्तते। विमर्शने सांसदः वायुसेवां सुरक्षितां विधातुं विधिर्निर्माणाय बलं प्रदाय आन्तर्वायुसेवां सुरक्षितां विश्वसनीयां गुणस्तरीय दायित्ववाहिनीं च विधाय यात्रिणाम् अधिकारस्य संरक्षणाय बलं दत्तवन्तः। राष्ट्रसभायाः अध्यक्षः नारायण प्रसाद दाहालः आन्तर्वायुसेवायाः दायित्व सम्बद्धं विधेयकमाधृत्य संशोधन प्रस्तावं प्रस्तोतुम् इच्छुकैः सांसदैः संघीय संसद सचिवालये संशोधन प्रस्तावं पञ्जीकर्तुं शक्यते इति असूचयत्। राष्ट्रियसभायाः अपरोपवेशः भाद्रमासस्य प्रथमे दिवसे सोमवासरे दिवा सपादैकवादने वस्ता। वैयक्तिक गोपनीयतायाः भञ्जन प्रकाशन सम्बद्धे अपराधे निगृहीतं जनास्था पत्रिकायाः सम्पादकं किशोरश्रेष्ठं प्रहरी नियन्त्रणे स्थापयितुं त्रीणि दिनानि वर्धितानि सन्ति। ह्यः काष्ठमण्डप जनपद न्यायालयेन श्रेष्ठ इत्यमुं दिनत्रयं यावत् निग्रहणे संस्थाप्य अनुसन्धातुं प्रहरिणे अनुमतिर्दत्तास्ति इति ज्ञापितं वर्तते। पत्रकार श्रेष्ठः परह्यो बुधवासरस्य रात्रौ वैयक्तिक गोपनीयतायाः प्रकाशन सम्बद्धे अभियोगे प्रहरिणा ललित पुरस्य आवासादेव निगृहीतः आसीत् इति समाचारः।